ಶೃಣ್ವನ್ನೂತಿ ಸಾಧನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಸಾಯೀಶ್ವರಾಯ ವಿದ್ಮಹೆ ಸತ್ಯದೇವಾಯ ಧೀಮಹಿ ತನ್ನ ಸರ್ವ ಪ್ರಚೋದಯಾತ್ ಕರ್ಣೇಭಿಶ್ಣುಯಾಮದೇವಾ ಭದ್ರಂ ಪಶ್ಯೇಮಾಕ್ಷಭಿರ್ಯಜತ್ರಾಃ ಶಿರೈರಂಗೈಸ್ತುಷ್ಟುವಾಗುಂತಸ್ತನೋಭಿಃ ಯಜೇಮದೇವಹಿತೈಯದಾಯುಃ ಸ್ವಸ್ತಿ ನ ಇಂದ್ರೋ ವೃದ್ಧಶವಾಃ ಸ್ವಸ್ತಿ ನಃ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿ ನ ಸಾಕ್ಷೋ ಅರಿಷ್ಟ ನೇಮಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದಧಾತು ಓಂ ಶಾಂತಿ 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 ಓಂ ನಮಸ್ತೆ ಗಣಪತಯೇ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ತತ್ವಮಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಕರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಭರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಭರ್ತಾಸಿ ತ್ವಮೇವ ಸರ್ವಂ ಕಲ್ವಿತಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಸಾಕ್ಷಾದಾತ್ಮಾಸಿ ನಿತ್ಯಂ ಋತಂ ವಚ್ಮಿ ಸತ್ಯಂ ವಚ್ಮಿ ಅವತ್ವಂ ಮಾಂ ಅವವಕ್ತಾರಂ ಅವಶ್ರೋತಾರಂ ಅವದಾತಾರಂ ಅವಧಾತಾರಂ ಅವಾನೂಚಾನಮವ ಶಿಷ್ಯಂ ಅವಪಶ್ಚಾತ್ತಾತ್ ಅವಪುರಸ್ತಾತ್ ಅವೋತ್ತರಾತ್ ಅವದಕ್ಷಿಣಾತ್ ಅವಚೋದ್ವಾತ್ ಅವಾಧರಾತ್ ಸರ್ವತೋ ಮಾಂ ಪಾಹಿ ಪಾಹಿ ಸಮಂತಾತ್ ತ್ವಂ ಮಾಮಯಸ್ತ್ವಂ ಚಿನ್ಮಯಃ ತ್ವಮಾನಂದಮಯಸ್ತ್ವಂ ಬ್ರಹ್ಮಮಯಃ ತ್ವಂ ಸಚ್ಚಿದಾನಂದಾದ್ವಿತಿ ಜ್ಯೋತಿ ತ್ವಂ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಜ್ಞಾನಮಯೋ ವಿಜ್ಞಾನಮಯೋಸಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವತ್ತೋ ಜಾಯತೆ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವತ್ತಸ್ತಿಷ್ಠತಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವಯಿ ಲಯಮೇಷ್ಯತಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವಯಿ ಪ್ರತ್ಯೇತಿ ತ್ವಂ ಭೂಮಿರಾವೋ ನಯೋ ನಿಯೋ ನವಃ ತ್ವಂ ಚತ್ವಾರಿ ವಾಪದಾನಿ ತ್ವಂ ಗುಣತ್ರಯಾತೀತಃ ತ್ವಂ ಅವಸ್ಥಾತ್ರಯಾತೀತಃ ತ್ವಂ ದೇಹತ್ರಯಾತೀತಃ ತ್ವಂ ಕಾಲತ್ರಯಾತೀತಃ ತ್ವಂ ಮೂಲಾಧಾರಸ್ಥಿತೋಸಿ ನಿತ್ಯಂ ತ್ವಂ ಶಕ್ತಿತ್ರಯಾತ್ಮಕಃ ತ್ವಾಂ ಯೋಗಿನೋ ಧ್ಯಾಯಂತಿ ನಿತ್ಯಂ ತ್ವಂ ಬ್ರಹ್ಮಾ ತ್ವಂ ವಿಷ್ಣುಸ್ತ್ವಂ ರುದ್ರಸ್ತ್ವಮಿಂದ್ರಸ್ತ್ವಂ ಅಗ್ನಿಸ್ತ್ವಂ ವಾಯುಸ್ತ್ವಂ ಸೂರ್ಯಸ್ತ್ವಂ ಚಂದ್ರಮಾಸ್ತ್ವಂ ಬ್ರಹ್ಮಭೂರ್ಭುವಸುವರೋ ಗಣಾದೀನಿ ಪೂರ್ವಮುಚ್ಚಾರ್ಯ ವರ್ಣಾದೀನಿ ತದನಂತರಂ ಅನುಸ್ವಾರ ಪರತರಃ ಅರ್ಧೇಂದು ಲಸಿತಂ ತಾರೇಣ ಋದ್ಧಂ ಏತತ್ತವ ಮನುಸ್ವರೂಪಂ ಗಕಾರ ಪೂರ್ವರೂಪಂ ಅಕಾರೋ ಮಧ್ಯಮ ರೂಪಂ ಅನುಸ್ವಾರ ಶಾಂತ್ಯ ರೂಪಂ ಬಿಂದುರುತ್ತರ ರೂಪಂ ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्ते बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पेषु पूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सुष्यादौ प्रकृतेः पुरुषात् परम् एवम् ध्यायति यो नित्यम् स योगी योगिना परः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॐ नमस्ते रुद्रमन्यव उतो तैषवे नमः नमस्ते अस्तु धन्वरे बाहुभ्यामुतते नमः या दर्शु शिवतमा शिवम् बभूव ते धनुः शिवा शरव्यायादवतयादो रुद्रमृडय या ते रुद्र शिवा तनूरघोरा पापकाशिनी तयानस्तनुवाशन्तव या गिरिशन्ताभिचाकशीः या विशुङ्गिरिशन्तहस्ते विभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि पुंसि पुरुषम् जगत् शिवे नवचसाध्वा गिरिशाच्छावरामसि यथा नस्तर्वमि जगद यक्ष्मगुम् सुमना असत् अद्य वोचदधिवक्ता प्रथमो दैव्योऽभिषत् अहीकृष्य सर्वान् जम्भयन् सर्वाश्रयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुस्तु मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुष्यता सहस्रशो वैश्वागुम् हेडरीमहे असौ यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो प्रणयाति नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोहन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्वमुभयोरात्रियोर्जाम् याश्च ते हस्त इषवः पराता भगवोमप अवतत्य धनुस्वगुम् सहस्रा शशते सुधे निशील्य शल्यादा मुखा शिवो न सुमना भव विज्यम् धनुः कपर्णिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्वमयक्ष्मया परिभुज नमस्ते अस्वायुधाया नाटताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यान्तव धन्वने परिते धन्वनो हेतिरस्मादृणत्तु विश्वतः अधोय इषुभिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुणार्धकाय त्रिकार्णिकालाय कालार्णिरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమస్తస్మిన్ జరాయ త్రిశీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ దివ్యాదినేనానాం పతయే నమో నమో హరికేశాయోపవీతిలే పుష్పాణాం పతయే నమో నమో హనుమస్య హేతే జగతాం పతయే నమో నమో రుద్రాయ తతామినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివశ్రుతాయ ఔషధీనాం పతయే నమో నమః ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమః కృష్ణవీణాయ ధావతే సత్వరాం పతయే నమః నమస్కారమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుబాయ నిషంగినే సేనానాం పతయే నమో నమో నిషంగిన ఇషుధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే సాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమస్కృతాభ్యో జిగాతుం సభ్యో ముష్ణతాం పతయే నమో నమోసి మధ్యో నత్తంచరభ్యః ప్రవృందానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమధ్యోరన్వాభిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్యః ప్రతిపదానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్తభ్యో విద్యభ్యశ్చ వో నమో నమ ఆశ్చయాభ్యశ్చ వో నమో నమ స్వపద్భ్యోదాభ్యశ్చ వో నమో నమస్తిష్టభ్యోధావద్భ్యశ్చ వో నమో నమ సభాభ్యశ్చ సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యోభ్యంతీభ్యశ్చ వో నమో నమ ఉభయాభ్యశ్రగుంభతీభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమస్సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యశ్చ సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః కుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుభ్యో దంభకృత్యశ్చ వో నమో నమో మృగయోభ్యశ్వరిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపరిభ్యశ్చ వో నమః నమో హవాయ చ రుద్రాయ చ నమః సర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శృతికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతదండ్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో హేరుత్సవాయ చ నమో హ్రస్వాయ చ వామనాయ చ నమో వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావస్వన్యాయ చ నమః స్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జఘన్యాయ చ బుద్ధియాయ చ నమః సోప్యాయ చ ప్రవిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఊర్వర్యాయ చ కల్యాయ చ నమః శ్లోక్యాయ చ అవసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూతినే చ నమో బిల్వినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చాహరణ్యాయ చ నమో కృష్ణవే చ ప్రవృషాయ చ నమో ధూతాయ చ రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః ఈశ్వేషవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః స్వృత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూచ్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ భక్త్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈంద్రియాయ చ తప్యాయ చ నమో వాద్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాసుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంఖాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ య చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూర్యాయ చ నమః భార్యాయ చ భార్యాయ చ నమః ప్రకరణాయ చోత్తరణాయ చ నమః ఆధార్యాయ చ లాధ్యాయ చ నమః షష్ప్యాయ చ ఫేణ్యాయ చ నమః స్వికత్యాయ చ ప్రవాహ్యాయ చ నమః హిరణ్యాయ చ ప్రపథ్యాయ చ నమః కిగుంశిలాయ చ శయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాత్యాయ చ గౌవరేష్టాయ చ నమో రథయ్యాయ చ నివేష్యాయ చ నమః పాగుం సవ్యాయ చ రజస్యాయ చ నమః శుష్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్యాయ చ సూర్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగుణమానాయ చ అభిఘ్నదే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్యేభ్యో నమ ఆలిర్హతేభ్యో నమ ఆమీవత్యేభ్యః రావే అంధసస్వదే దరిద్రన్నీలలోహితాం ఏషాం పురుషాణామేషాం పశూనాం మారే మాయోమో ఏషాం కించనామవత్ యాతే రుద్రశివా తనో శివా విశ్వాః భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృగజీవసే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం यथानश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधिक्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्रमनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधीर्पितरम् मोत मातरम् प्रियामानस्तनुमो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो भोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्भविष्मन्तो नभसा विधेमते आराते गोम्नौत पूरुषग्ने शयत्वीराय सुम्नभस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च न शर्म यच्च द्विबर्हाः सुहृश्रुतम् गर्त सदयुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृगाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते तृणक्तु परित्वेषस्य दुर्मतिरघायो अवस्ति रामभवद्भ्यस्तनुष्वमेव स्तोकाय तनयाय मृडय वीणुष्टम शिवतम शिवो न सुमना भव परमे वृष्यायुधम् निधाय कृत्तिम् वसाद आचर पिनाकम् दिव्रदा दहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुन्धेतयो नमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः ईशानो भगवः पराचीना मुखाकृति सहस्राणि सहस्रशो ये रुद्रादिभूयाम् तेषाम् सहस्रयोजने वदन्तानि तन्मसि अस्मिन् महत्यर्णवे परिष्ये भवा अरि नीलग्रीवाश्रिति कण्ठा शर्वा अधः क्षमाचरा नीलग्रीवाश्रिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कवर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् परिरक्षय ऐलभृधाय व्युधः ये दीर्घानि प्रचरन्ति सुतावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यान्येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राची दश दक्षिणा दश प्रतीची दशोदीची दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विश्वो यश्च नोर्वेष्टितम् भोजम् भे दधामि त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मोक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हियस्मिषु सुदन् वायो विश्वस्य क्षयति भेषजस्य यस्वा महेशौ मनसाय रुद्रम् नमो देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यदुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे रसितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पादश्च मे व्यानश्च मे शुश्च मे चित्तम् च आदितम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहश्च आयुश्च मे जरा च आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे गाणि च मे स्थानि च मे परूंषि च मे शरीराणि च मे जैष्ठ्यम् च आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे मश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोद मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यम् च मे सुखम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे कृतम् च मे कृतिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे दत्ता च मे क्षेमश्च मे इतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सूश्च मे प्रसूश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सूता च मे सुदिनम् च मे ऊर्च मे सूनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे शक्तिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे क्षुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे
अश्वा च मे
वृत् मृत्तिका च मे गिरयश्च मे पर्वताश्च मे चिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीतं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च आपश्च मे विरुधश्च ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे तश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे भूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मेन्दर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्री च म आग्रयणश्च मे वैश्वदेवश्च मे मरुश्च मे वैश्वानरश्च मरुतुग्रहाश्च ग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इत्वश्च मे बर्हिश्च मे वेदिश्च मे धिष्ठियाश्च मे सुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे विषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतभृच्छ म आधवनीयश्च म आग्नीर्द्रं च मे अभिधानं च मे गृहाश्च मे तद श्च मे पुरोराशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे हो रात्रयोर्दृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे दित्यवाच्च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्ठवाच्च मे पष्ठौही च म उक्षा च मे वशा च म वृषभश्च मे वेहश्च मे नड्वा च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् भानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च प्रश्नेयश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इरादे बहुर्मनोर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सर्वं त्रिषद्विश्वे देवासूक्तवाच पृथिवीमातर्मा मारिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वाच मुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ
नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च नमः शिवाय शिवाय नमो नमः शिवाय च च शिवाय नमो नमः शिवाय च शिवाय च च शिवाय शिवाय च ॐ शान्ति शान्ति शान्तिः तच्छय्योरावृणीमहे गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्तिश्चान्तिश्चान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतारुतत्त्वस्येषः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्वदैपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत साशनारचने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्याद्विराज्यम् ग्रीष्म यद्मः शरद्धविः सप्तास्यात्तन्परिधयः त्रिसप्तसमिधः कृताः देवा यद्यज्ञम् तन्वानाः अपद्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त ताद्यार्षयश्चये तस्मात् यज्ञात् सर्वभूतः समृतं वृषराज्यम् पशुगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वभूतः ऋचत्सामानि जग्मिरे छन्दांसि जग्मिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावोह जग्मिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कथिता व्यदल्पयन् मुखम् किमस्य कौ बाहुः का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखारिन्द्रश्चाग्निश्च प्राणात् वायुरजायत नाभ्यासीदन्तरिक्षम् शेषाद्यौ समवर्धत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम्बकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पाये सर्वाणि रूपाणि विचित्य वीरः नामानि कृत्वाभिवदनु यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रविशश्च तस्रः त्वमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानस्य चन्ते यत्र पूर्वे साध्या सन्ति देवाः अभ्यस्सम्भूतः पृथिव्यैरसा विश्वकर्मणः समवर्धदाभि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाचानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आदपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्य जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे प्रीष्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यासम् इष्टम् मनिषाणा अहम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः जातवेदते सुनवाभसो महराति यतो निदहाति वेदः सः पर्षदति दुर्गाणि विश्वानादेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णान् तपसा ज्वलन्तीम् वैलोचनीम् कर्म फलेषु जुष्टा दुर्गान् देवीं शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूष्य पृथ्वी बहुलार उर्वी भवातोकायतनयाय चैल्यो विश्वानि नो दुर्गः जातवेद सिन्धुम् न नाम दुरितापि पर्षि अग्ने अत्रिवन्मनसा गृणानो अस्माकम् भोग्यमिता तनूनाम् ृतनाग्रमग्निगुम्भुवेम परमात् सदस्ता स पर्षदति दुर्गाणि विश्वाक्षामद्देव अतिदुरितात्यग्निः रत्नोऽसि कमीड्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सि स्वाञ्चाग्ने तनुवम् पिप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेम नाकस्य पृष्ठमभि संवसानो वैष्णवीम् लोक इहमादयन्वा कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् समम् समिद्युवसे वृषन्नग्ने विश्वान्यर्यः इळःपदे समिद्यसे तनो वसून्याभर सङ्गच्छध्वम् संवदध्वम् शम्भो मनांसिजानताम् देवा भागम् यथा पूर्वे सञ्जाना उपासते समानो मन्त्रः समिति समानी समानम् मनसः चित्तमेषाम् समानम् मन्त्रमभिमन्त्रयेव समानेन वो हविषा जुहोमि समानी महाकूति समान हृदयानि वः समानमस्तु वो मनो यथा वस्तु सहसति न कर्मणा न प्रजया धनेन त्यागेनैव अमृतत्वमानशु परेण न कन्निहितम् गुहायाम् विभ्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगाध्यतयः शुद्धसत्त्वाः ते ब्रह्म लोके तु पराकाले परामृतात् परिमुच्यन्ति सर्वे गौरम् विपापम् परमेष्मभूतम् यत् पुण्डरीकम् पुरमध्यसद्ग्रस्तम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वर
ईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात्। हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिर्महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ